ಉಪಸರ್ಗಾಕ್ರಿಯಾ ಯೋಗೇತಿ ಹ್ಯಸ್ತನ ಕಕ್ಷಾಯಾಂ ಅಸ್ಮಾಭಿಃ ಅಧೀತಂ. ಇತ್ಯುಕ್ತೆ ಪ್ರಾದಯಃ ಪ್ರಾದಿರ್ನಾಮ ಕಶ್ಚನ ಗಣಃ ವಿದ್ಯತೆ. ಪ್ರಾದಿಗಣೆ ಪ್ರಪರಾಪ ಸಮ ಅನು ಅವ ನಿರ್ನಿಸ್ ಏತೆ ಸರ್ವೇ ಪ್ರಾದಯಃ ಇತಿ ಉಚ್ಯಂತೆ. ಯದಾ ಪ್ರಾದಯಃ ಕ್ರಿಯೆಯ ಸಹ ಅನ್ವಿತೋ ಭವತಿ ತದಾ ತೇಷಾಂ ಉಪಸರ್ಗಸಂಜ್ಞತ್ವಂ ಆಯಾತಿ. ಏವಂ ದ್ವಾವಿಂಶತಿ ಉಪಸರ್ಗಾಃ ಇತಿ ಉಚ್ಯತೆ. ಸ್ವತಂತ್ರೇಣ ಪರ ಅಪ ಇತಿ ಉಚ್ಚಾರ್ಯಮಾಣೆ ಸತಿ ತೇಷಾಂ ಉಪಸರ್ಗಸಂಜ್ಞಾ ನಾಸ್ತಿ ಇತಿ ಅರ್ಥಃ. ಯದಾ ಕ್ರಿಯಾಯೋಗೇ ತೇಷಾಂ ಪ್ರವೃತ್ತಿಃ ಭವತಿ ತದೈವ ಉಪಸರ್ಗಸಂಜ್ಞಾತ್ವಂ ಆಯಾತಿ. ಏವಂ ಪ್ರಾದಯಃ ನಾಮ ಗಣಃ, ಆದೌ ಗಣಪಾಠಃ ತತಃ ಸೂತ್ರಪಾಠಃ ಇತಿ ಅಸ್ಮಾಭಿಃ ಶ್ರುತಮಸ್ತಿ. ತತ್ರ ಪ್ರಾಣಿನಿಃ ಪ್ರಥಮಂ ಗಣಪಾಠಂ ಕೃತವಾನ್, ತತಃ ಪರಮೇವ ಸೂತ್ರಪಾಠಂ ಕೃತವಾನ್. ತದನಂತರಂ ಭೂವಾದಯೋ ದಾತವಃ ಇತಿ ಸೂತ್ರಂ ವಿದ್ಯತೆ. ಕ್ರಿಯಾವಾಚಿನಃ ಭೂವಾದಯಃ ಧಾತು ಸಂಜ್ಞಾ ಸ್ಯುಃ ಇತಿ ತಸ್ಯ ಸೂತ್ರಾರ್ಥಃ. ಅತ್ರ ಭೂವಾದಯೋ ನಾಮ ಭೂಶ್ಚ ವಾಶ್ಚ ಭೂ. ಅತ್ರ ಭೂ ನಾಮ ಭೂಸತ್ತಾಯಾಮ್ ಇತಿ ಧಾತುಃ ಸ್ವೀಕ್ರಿಯತೆ. ವಾ ನಾಮ ವಾ ಗತಿಗಂಧನಯೋಃ ಇತಿ ಧಾತುಃ ಸ್ವೀಕ್ರಿಯತೆ. ಇದಾನಿಂ ಕಿಮರ್ಥಂ ಧಾತುದ್ವಯಂ ಅತ್ರ ನಿರ್ದಿಷ್ಟಂ, ಏಕೇನ ಧಾತುನಾ ಇಷ್ಟಸಿದ್ಧಿ ಭವತಿ ತೇಷಾಂ ಧಾತು ಸಂಜ್ಞಾ ಭವತಿ ಯತೋ ಹಿ ಧಾತುಪಾಠೆ ಏತೇ ಸರ್ವೇ ಪಠಿತಾಃ ಇತಿ ಪ್ರಶ್ನೆ ಕೃತೆ ತದಾ ಉತ್ತರಂ ದೀಯತೆ. ಭೂವಾದಯಃ ಇತ್ಯತ್ರ ಆದಿಶ್ಚ ಆದಿ ಭೂವೌ ಆದಿ ಯೇಷಾಂ ತೇ ಭೂವಾದಯಃ ಇತಿ ಭವತಿ. ಪ್ರಥಮ ಆದಿಶಬ್ದಃ ಪ್ರವೃತ್ತಿವಚನಃ, ದ್ವಿತೀಯಾದಿಶಬ್ದಃ ಪ್ರಕಾರವಚನಃ. ಇತ್ಯುಕ್ತೆ ಇದಾನಿಂ ಪಾಣಿನ ದ್ವಿಸಹಸ್ರ ಧಾತವಃ ಧಾತುಪಾಠೆ ನಿರ್ದಿಷ್ಟಾಃ. ತತ್ರ ಪ್ರಥಮ ಧಾತುಃ ಮಾಂಗಲಿಕಃ ಭೂಧಾತುಃ. ಇದಾನಿಂ ಭೂಪ್ರವೃತ್ತಯಃ ಇತ್ಯುಕ್ತೆ ಭೂಪ್ರವೃತ್ತಿ ದ್ವಿಸಹಸ್ರ ಧಾತವಃ ಧಾತುಗಣೆ ಯೇ ಪಠಿತಾಃ ತೇ ಸರ್ವೇ ಧಾತವಃ ತೇ ಸರ್ವೇ ಶಬ್ದಾಃ ಧಾತುಸಂಜ್ಞಕಾಃ ಭವಂತಿ ಇತ್ಯರ್ಥಃ. ಇದಾನಿಂ ಏತೇನ ಕಿಂ ಜಾತಂ ಭೂ ಇತ್ಯಸ್ಯ ಭೂಮಿಃ ಇತ್ಯಪಿ ಅರ್ಥಃ ಭವತಿ. ಕದಾಚಿತ್ ಭ್ರಮಃ ಸಂಭವತಿ ಇತ್ಯುಕ್ತೆ ಭೂ ಭೂಮಿಃ ಇತಿ ಅರ್ಥಯುಕ್ತಸ್ಯ ಶಬ್ದಸ್ಯ ಕಿಂ ಧಾತುಸಂಜ್ಞಾ ಭವತಿ ವಾ ಇತಿ ಕದಾಚಿತ್ ಭ್ರಮಃ ಸ್ಯಾತ್ ಇತಿ ಕಾರಣೇನ ಅತ್ರ ವಾ ಇತ್ಯಪಿ ಯೋಜಿತಃ. ಏವಂ ವಾ ಗತಿಗಂಧನಯೋಃ ಇತಿ ಧಾತೋಃ ಯೋಜನೇನ ಕಿಂ ಅಭವತ್ ಇತ್ಯುಕ್ತೆ ವಾ ಧಾತುಃ ಕ್ರಿಯಾಸಾದೃಶ್ಯಂ ದ್ಯೋತಯತಿ. ಕ್ರಿಯಾವಾಚಿನಃ ಭೂಸದೃಶಾಃ ಧಾತವಃ ವಾ ಸದೃಶಾಃ ಧಾತವಃ. ಕ್ರಿಯಾವಾಚಿನಃ ಭವೇತ್ ಇತ್ಯುಕ್ತೆ ಕ್ರಿಯಾಸೂಚಕಂ ಪದಂ ಭವೇತ್ ತದಾ ಏವ ಧಾತುಸಂಜ್ಞಾ ವಿಧೀಯತೆ. ಏವಂ ಧಾತುಪಾಠೆ ಪಠಿತಶಬ್ದಃ ಯದಿ ಕಾಂಚನ ಕ್ರಿಯಾಂ ಪ್ರಕಟೀಕರೋತಿ ತರ್ಹಿ ಸಾ ಕ್ರಿಯಾ ಧಾತುಸಂಜ್ಞಾ ಭವತಿ ಇತಿ ಭೂವಾದಯೋ ಧಾತವಃ ಇತ್ಯನೇನ ಧಾತುಸಂಜ್ಞಾ ಅಸ್ಮಾಭಿಃ ಪಠಿತಂ. ಉಪಸರ್ಗಾದೃತಿ ಧಾತೌ ಇತ್ಯತ್ರ ಅಗ್ರಿಮಸೂತ್ರೆ ಋಕಾರಾದೌ ಧಾತೌ ಪರೇ ಅವರ್ಣಾಂತಾದುಪಸರ್ಗಾತ್ ಋಕಾರಾದೌ ಧಾತೌ ಪರೇ ವೃದ್ಧಿಃ. ಇದಾನಿಂ ಪ್ರಶ್ನಃ ಜಾಯತೆ ಕಿಮರ್ಥಂ ಉಪಸರ್ಗಸಂಜ್ಞಾ ಇದಾನಿಂ ಉಚ್ಯತೆ, ಕಿಮರ್ಥಂ ಧಾತುಸಂಜ್ಞಾ ಇದಾನಿಂ ಉಚ್ಯತೆ ಇತ್ಯುಕ್ತೆ ಉಪಸರ್ಗಾದೃತಿ ಧಾತೌ ಇತ್ಯತೆ ವೃದ್ಧಿಃ ಭವತಿ. ಇದಾನಿಂ ವೃದ್ಧಿ ಪ್ರಕರಣಂ ಅಸ್ಮಾಭಿಃ अधीयमानमस्ति। वृद्धिप्रकरणे उपसर्गादृतिदातौ इत्यत्रापि वृद्धिः आगच्छति। अवर्णान्ताद् उपसर्गाद् ऋकारादौ धातौ परे वृद्धिः भवति। एवं प्ररुच्छति इत्यत्र अर् इत्यत्र तत्र गुणः भवेत्, परन्तु ऋकारादिधातुः अस्ति, तत्र अवर्णान्तः उपसर्गः अस्ति इति कारणेन गुणस्य अपवादत्वेन वृद्धिः भवति। एवम् उपसर्गादृतिदातौ इति एतत् सूत्रम् आद्गुणः इति प्राप्तस्य गुण एकादेशस्य अपवादः अस्ति। येङि पररूपम् इत्यपि सूत्रम् अस्माभिः अधीतम्। येङि पररूपं तत् सुलभमस्ति, विधिसूत्रमस्ति। आद् उपसर्गात् आत् इत्युक्ते आत् इति पदम् उपसर्गादिति पदस्य विशेषणं भवति। अत्र उपसर्गादिति अनुवृत्तिः, उपसर्गादित्तिधातौ इत्यस्मात् अनुवृत्तिः भवति। सूत्रे येङ् इति प्रत्याहारे एवो इति वर्णौ अस्माभिः स्वीक्रियते। धातौ इति पदस्य विशेषणत्वात् येङि इति पदम् इत्युक्ते आद् उपसर्गात् येङादौ धातौ परे किं भवति, पररूपं भवति। उदाहरणं पश्यामश्चेत् ज्ञायते। प्रयजते इदानीम् उपसर्गः प्र तु उपसर्गः अस्ति, ज्ञायते। येजते इत्यत्र एकारादि धातुः अस्ति, इत्युक्ते येजादिधातुः अस्ति। एवं येङादिधातुः अस्ति, अतः अत्र अकार एकारयोः स्थाने पररूपं नाम पूर् अ ये स्थाने एकारः परवर्णः, अतः एकारः आगच्छति, प्रयजते इति रूपं भवति। एवम् उपोषति इत्यत्रापि उपोषति इति भवति। एतावद् अस्माभिः पूर्वस्यां कक्षायाम् अधीतम्। अस्यां कक्षायाम् अचोन्त्यादिटि इति नूतनं सूत्रं पश्यामः। अत्र अचः अन्त्यादिटि इति पदत्रयं विद्यते, त्रिपदात्मकं सूत्रम् एतत्। प्रथमाध्यायस्य प्रथमपादे चतुष्षष्टितमं सूत्रं वर्तते। इदानीम् अनेन किं क्रियते इत्युक्ते संज्ञासूत्रमस्ति, अनेन टिसंज्ञा, तत्र आङ्ग्लभाषायाः टि नास्ति एतत्, आङ्ग्लभाषायाः टि काफी नास्ति एतत्। एतत् आङ्ग्लभाषायाः टि नास्ति, तत्र पाणिनिमते टि इत्युक्ते किम् इति पश्यामः। इदानीं सः किं करोति, अचोन्त्यादि टि अचां मध्ये, अचः इत्यत्र षष्ठीविभक्तिः अस्ति। इदानीं षष्ठीविभक्तिः सर्वत्र षष्ठीस्थाने योग इति अस्माभिः एतावत्पर्यन्तं किम् अधीतम् इत्युक्ते षष्ठी इत्युक्ते षष्ठीस्थाने इति भवति इति एतावत्पर्यन्तम् अस्माभिः तादृशसूत्राणामेव परिचयः प्राप्तः। इदानीम् अत्र यदि पश्यामश्चेत् अचः इत्यत्र निर्धारणषष्टिविभक्तिः भवति। इदानीं निर्धारणषष्टिविभक्तिः नाम किम् इत्युक्ते तत्र बालकानां भीमः बलिष्ठः अथवा बलिष्ठतमः, बालकानां भीमः बलिष्ठतमः। इदानीं किं क्रियते, निर्धारणं नाम पृथक्करणम्। बालकानाम् इदानीं बालकाः अनेके बालकाः सन्ति, तेषां मध्ये अस्माभिः पृथक् क्रियते। कं पृथक् क्रियते, भीमं पृथक् क्रियते। भीमं पृथक् कृत्य अस्माभिः उच्यते एषः भीमः balishtatamaha iti uchyate. Evam etadrusha prithakkarana samaye tat samuhaha yad bhavati tat shashti vibhakto va saptami vibhakto va bhavet iti vyakarana niyamaha. Karaka prakarane yeshaha niyamaha uchyate. यदा षष्ठी विभक्ति ही भवति एतादृश समूहार्थद्योतने समूहे यदा एकस्य पृथक्करणं भवति तदा निर्धारणम् इति उच्यते. समूहेषु एकस्य पृथक्करणं निर्धारणम् यदा निर्धारणं भवति तदा षष्ठी विभक्तिः भवति. अत्रापि अचोन्त्यादिति इत्यत्र अचाम इत्यत्र अचः इत्यत्र अचः इत्यत्र निर्धारण षष्टि अस्ति. अचाम मध्ये यः अन्त्यः अचः इदानीम् अस्माभिः अन्त्य अचस्य पृथक्करणं क्रियते. अचाम मध्ये यः अन्त्यः तत्र अस्माभिः ज्ञेयः इदानीं षष्ठीस्थाने योग इत्यस्य सूत्रार्थः कः इत्युक्ते अनिर्धारित सम्बन्ध विशेषा षष्ठीस्थाने योग बोध्या. एवं यदा सम्बन्धः अनिर्धारितः भवति तदा एव तदा षष्टिविभक्तिः भवति चेत् स्थाने योग इति अस्माभिः स्वीक्रियते. इदानीम् अत्र सम्बन्धः निर्धारितः कथं निर्धारितः निर्धारणा षष्ठी इति सम्बन्धः निर्धारितः. एवम् अत्र स्थानषष्ठी न भवति. इदानीं षष्ठी मध्ये बहुविधषष्ठी लभ्यते. स्थानषष्ठी एकं षष्ठी मध्ये स्थानषष्ठी एकं निर्धारणषष्ठी एकम् अवयवषष्ठी एकम् एवम् एतादृश षष्ठी एतादृश षष्ठी विभक्तयः बहु दृश्यते व्याकरणशास्त्रे. अत्र तु विशेषतया निर्धारणषष्ठी विभक्तिः अस्ति. अतः सर्वत्र षष्ठी विभक्तिः स्थाने एव भवति इति न नियमः. एतद् बहु प्रमुखः अंशः. अवगतं वा? अचः इत्यत्र न स्थानषष्ठी अस्ति, अत्र निर्धारणषष्ठी अस्ति इति अवगतं वा? अस्तु, उत्तमम्. इदानीं पुनः अग्रे गम्यते. अन्ते भवः अन्त्यः, अन्त्यः आदिः यस्य स्वरूपस्य यस्य शब्दस्वरूपस्य तदन्त्यादि. अन्त्यादि इत्यत्र कः समासः? अन्ते भवः अन्त्यः, अन्ते इत्युक्ते अट् दि एण्ड् इति उच्यते किल. अन्ते भवः अन्त्यः. अन्त्यः आदिः यस्य शब्दस्वरूपस्य. इदानीमेकं शब्दस्वरूपमस्ति अन्त्यः. अन्त्यः इत्युक्ते अन्त्य अच् यदि अस्माभिः पृथक् कृतं तत् अन्यस्य शब्दस्वरूपस्य आदिवर्णः अस्ति. तादृशस्य टिसंज्ञं भवति. तादृशशब्दसमुदायस्य टि इति उच्यते. टि इति नाम दीयते, नामकरणं दीयते. उदाहरणं पश्यामश्चेत् ज्ञायते. सूत्रस्य भावार्थः इत्थं वर्तते. अचां मध्ये यो अन्त्यः सः स्वरः आदिर्यस्य वर्तते तस्य टिसंज्ञा. इदानीमेकं पश्यामः. रामम् इति अस्ति. अत्र रकारोत्तर आकारः अस्ति. इदानीं मकारोत्तर अकारः अस्ति. एवं कति अचः सन्ति अस्मिन् पदे इत्युक्ते आ इति एकः अच् अस्ति, अ इति एकः अच् अस्ति. इत्युक्ते अचौ द्वौ स्तः. इदानीं अन्त्य अच् कुत्र अस्ति इत्युक्ते अन्त्य अच् मकारोत्तर अकारः अन्त्य अच् भवति. इदानीम् अन्त्य अच् कस्यचित् वर्णसमुदायस्य ஆதிவர்ணஹ அஸ்திவா நவா இதி பிரஷ்னே கிருதே அம் இதி அஸ்தி தத்ர மகாரஹ அம் மகாரஹ மு இத்யத்ர மகாரஹ வ்யஞ்சனவர்ணஹ அஸ்தி நது ஸ்வரவர்ணஹ அதஹ அம் இதி அந்த்ய அச் அஸ்மாபிஹி ப்ருதக் க்ருதஹ யஹ அந்த்ய அச் அஸ்தி அகாரஹ சஹ அகாரஹ அம் இத்யஸ்ய ஆதிவர்ணஹ அஸ்தி அம் இதி வர்ணசமுதாயஸ்ய ஆதிவர்ணஹ அஸ்தி இவ இதானீம் ராமம் இதி ஷப்தே அம் இத்யஸ்ய டி சன்யா ஆகதா பாணினிஹி கிம் கரோதி டி சன்யா ஏவம் உச்சதே இதானீம் மனஸ் இதி ஷப்தம் ஸ்வீகுர்மஹ த்விதீயம் உதாஹரணம் மனஸ் இதி ஷப்தே மகாரோத்தர அகாரஹ நகாரோத்தர அகாரஹ ஏவம் அசௌ த்வௌ ஸ்தஹ இதானீம் அந்த்ய அச் அஸ்மாபிஹி ப்ருதக் கரணீயம் அந்த்ய அச் அ இதி ப்ருதக் க்ருதம் ஸஹ அந்த்ய அச் யத் அஸ்தி தஸ்ய ஸஹ ஸஹ வர்ணஹ அஸ்தி இதி வர்ணசமுதாயஸ்ய ஆத்ய வர்ணஹ அஸ்தி ஏவம் அஸ் இத்யஸ்ய டி சன்யா அஸ்தி இதானீம் ஏவமேவ அக்ரிம உதாஹரணம் பஷ்யாமஹ பதத் இதானீம் அஹம் வதாமி பதத் இத்யத்ர டி பாகஹ கஸ்ய அஹம் ஸ்லைட் ந தர்ஷயாமி கிருபையா டைப் குர்வந்து பதத் இதி சப்தஹ கி பதத் தஸ்ய டி சன்யா கஸ்ய வர்ணஸ்ய அத் ஏவம் அக்ரிம சப்தஹ ஆதாம் 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 ஆம் ஆம் இதி டிசன்யா ஆம் இதி வர்ணசமுதாயஸ்ய டிசன்யா சமீசினம் அதி உத்தமம் இதானீம் த்வம் த்வம் இதி வர்ணஹ அஸ்தி அஸ்து சமீசினம் அம் இத்யஸ்ய டிசன்யா வித்யதே ஏவம் அக்னிசித் இதி அஸ்தி அக்னிசித் அக்னிசித் இத் வர்ணஹ இதானீம் பஷ்யந்து பதத் இத்யஸ்ய அத் இத்யஸ்ய ஆதாம் இத்யத்ர ஆம் இத்யஸ்ய த்வம் இத்யஸ்ய ஆம் அம் இத்யஸ்ய அக்னிசித் இத்யத்ர இத் இத்யத்ர டிசன்யா வர்த்ததே இதானீம் பிரஷ்னஹ அஸ்தி ததி இதி வர்ணஹ அஸ்தி ததி ததி தஸ்ய இதானீம் கஸ்ய வர்ண ததி இத்யத்ர கஸ்ய இத்சன்யா இதானீம் அஸ்மாபிஹி கிம் கரணீயம் தகாரோத்தர அகாரஹ அஸ்தி தகாரோத்தர இகாரஹ அஸ்தி ஏவம் அசௌ த்வௌ ஸ்தஹ இகாரஸ்ய அஸ்து இகாரஸ்ய கதம் பிராப்தம் டி சன்யா பதே பவதி வா பிராதிபதிகே பிரத்யேபி கிம் டி சன்யா பதே பவதி வா பிராதிபதிகே பிரத்யயே அபி பிரஷ்னஸ்ய அவகம் டி சன்யா பதே பவதி வா பிராதிபதிகே பிரத்யயே அபி சர்வத்ர அச்சாம் மத்யே யோ அந்த்யஹ ச ஆதிர்யஸ்ய சமுதாயஸ்ய தஸ்ய டி சன்யம் ஸ்யாத் பதே பிராதிபதிகே இதானிம் பிராதிபதிகே அஸ்மாபிஹ திரஷ்டவ்யம் அச்சாம் மத்யே யோ அந்த்யஹ பிராயஹ பதே எவ ஸ்ரூயதே கதாசித் பிராதிபதிகே பிரத்யயே அபி டி சன்யா பவித்தும் அர்ஹதி யதோ ஹி இதானீம் ததி இத்யத்ர கதம் இகாரஸ்யைவ தத்ர வர்ணசமுதாயஹ நாஸ்தி ஏவம் வர்ணசமுதாயஹ நாஸ்தி அதஹ இதானீம் பஷ்யந்து வர்ணசமுதாயஹ நாஸ்தி குத்ர ikarasya. Ataha kim abhavat idanim devadattasya kashana devadattaha asti tasya ekaha eva putraha. Idanim tam dattva vayam prachamaschet bhavataha jeshta putrasya namakim. Yadi ramaha iti tasya putrasya rama savadati ramaha. Bhavataha kanishta putrasya namakim ramaha. Kivartham jeshta putrasya api ramaha kanishta putrasya api ramaha sayeva ramaha vay. Aam sayeva ramaha. Mama ekaha eva putraha. Mama krute sahayeva jeshtaha sahayeva kanishtaha iti nyayena. Yatha devadatyasya yadi ekaha eva putraha samabhavati. Tasya ekaha eva putraha jeshtopi bhavati kanishtopi bhavati. Tathaiva atra dadhityatra ikaraha asti. Dadhityatra dakarotra ikaraha asti. Yadi tasya sayeva antima achasti tasya varna samudayatvam nasti tasya. Prithaktaya eka varnatmakeneva tishtati saha varnaha chet. Tasya eva tisanya bhavati. Evam Ashwini Mahodayaha Pritchati Tatra Dvammiti Pratyatvamasti Atayeva Darshitam Kadachit Pratyati Bhavati Iti Karane Neva Dvammityatra Am Ityatra Tisanyasti Atam Ityati Pratyaha Evasti Evam Agnichit Ityati Pratyati Bhavati Pratipadike Api Bhavati Tat Prayojanam Asti Chet Tat Tisanyaya Kachit Prayojanam Bhavet Idani kadachit tisanyayaha lopaha bhavati etat sarvam bhavati kadachit pratipadike api lopaha drishyate tisanyayam kadachit pratyaye kashchana vyatyasah prakriya drishyate ata eva tisanya pratipadikeva pratyayeva sanyapade api bhavati bhavitum arhati idanim dadhityatra tisanya kasya iti jnatam asmabhi idanim agrima sutram sutram na vartikam tate shakandvadishu pararupam vachyam idanim paninihi king bhutavan kutra kutra pararupam bhavati iti saha pariganam kutva agatvan prathamam kim uttavan saha yengi pararupam tatra shastadhyayasya prathamapade Paninihi kim karoti yengi pararupam ityadi sutramasti evam pararupa sambhihi yada saha vadati tada shakandvadishu pararupam vachyam iti vartikakaraha kim karoti tatra shakandvadi ganaha iti asti shakandvadi ganaha nama ganapataha idanim ganapataha iti uktam ado ganapataha tata sutrapataha iti shakandvadi ganaha kastana ganaha atra kesana shabdaha pariganita shakanduhu iti eka shabdaha shakanduhu nama artaha kim ityukte shaka deshasya kupaha iti uchyate Shaka iti deshasya nama Shaka deshasya kupaha shakanduhu iti uchyate Idanim shakanduhu ityatra Shakanduhu ityasya sadhutvam katam Shaka anduhu Anduhu nama kupaha Shaka shaka deshasya Shaka anduhu iti sthite Shaka anduhu iti Savarna dirgaha bhavet kila Akastavarne dirgaha iti Katham shakanduhu iti rupasiddhihi iti prashna Tada uchyate atra pararupam eva kartavyam natu savarna dirgaha kena jnatam bhavadbhihi ityukte shakanduhu iti rishibhihi asmakam rishibhihi uktam shakanduhu iti tada kim agatam shakanduhu ityatra A akara akarayoho shakandvadishu pararupam vachyamiti vartikena atra pararupam bhavati idanim meenakshi bhagini idanim prachati दधि शब्द शब्दे इवर्णस्य कथम टी पूर्वं मया दर्शितं दधि शब्दे धकारोत्तर इकारः एकः एव वर्णः तस् वर्णसमुदायस्य आदित्यं तस्य नास्ति यदि एकः एव इदानीं यथा देवदत्तस्य यदि एकः एव पुत्रः अस्ति स एव ज्येष्ठः स एव कनिष्ठः तदा इदानीं वर्णसमुदायोऽपि सः वर्णः अपि सः सः एव अतः इकारस्य टिसंज्ञा अस्ति टिसंज्ञायाः टिसंज्ञा कृते अस्माकं किम् आवश्यकम् अचां मध्ये यो अन्त्यः स आदिः यस्य समुदायस्य इदानीम् इकारः अन्त्य अचः अच् अस्ति सः यस्य समुदायस्य कस्य समुदायस्य आदिः इति उच्यते इकारसमुदायस्य आदिः अतः समुदायः एव नास्ति स तर्हि इकारः एव एकः एव समुदायः इत्यत्वेन गण्यते समुदायत्वेन गण्यते कथम् इत्युक्ते लौकिकन्यायः प्रदर्श्यते तद् पुत्रस्य देवदत्तस्यैक एकपुत्रन्यायः देवदत्तस्य एकपुत्रन्यायः लौकिकन्यायः प्रदर्श्यते तदनन्तरम् अतः इकारः एव टिवर्णः तत्र ज्ञातं वा मीनाक्षी भगिनि बहु समीचीनम् अस्तु शक अन्धुः इत्यत्र शकन्धुः शकन्धुः इत्यत्र सवर्णदीर्घः भवेत् परन्तु शकन्द्वादिगणे पठितत्वात् तस्य शकन्द्वादिषु पररूपं वाच्यम् इति वार्तिकेन सवर्णदीर्घः न भवति परन्तु पररूपं भवति पररूपं नाम इदानीं किमर्थम् अस्माभिः यदि सवर्णदीर्घः क्रियते चेत् दोषः वा इत्युक्ते शक अन्धुः इति पदं तु पूर्वमेव ऋषिभिः सिद्धम् अतः तस्य अन्वाख्यानम् अस्माभिः करणीयं शकन्धुः इति कथं प्रवृत्तम् इति तदा उच्यते पाणिनिः किं कृतवान् शकन्द्वादिसदृशशब्दानाम् एकस्मिन् गणे प्रविष्ट प्रवेशितवान् तत्र शकन्द्वादिगणानाम् एकगणः कृतवान् टिसंज्ञा उक्तवान् टिसंज्ञाम् उक्त्वा सः किं कृतवान् यदि अत्र शकन्द्वादिगणे पठितानां शब्दानां सिद्ध्यर्थम् इत्युक्ते साधुत्वप्रतिपादनार्थं शकादिपदानां टेः तत्र टिवर्णः टिभागः यद्यस्ति शक इत्यत्र टिभागः अकारः तत् परस्य अचस्य स्थाने पररूपं वक्तव्यम् इदानीं शक इत्यत्र टिभागः टिभागः टिवर्णः कः इति प्रश्ने कृते अन्त्य अकारः शक इत्यत्र अन्त्य अकारः इदानीं तच्चटेः शकन्द्वादिषु पररूपं वाच्यं कस्य पररूपं वाच्यं टिवर्णस्य अचस्य पररूपं वाच्यं टिवर्ण अकारयोः टिवर्ण अचः सारि टिवर्ण अचां मध्ये अचां स्थाने किं भवति पररूपं भवति इदानीम् अग्रिम उदाहरणं पश्यामः कर्कन्धुः इति कर्क अन्धुः इत्यत्रापि कर्क तत्र टिभागः अकारः एवम् अन्धुः इत्यत्र अकारः अच्वर्णः अस्ति एवं टिभागस्य अचां मध्ये एकः पूर्वपरयोः इत्यनेन पररूपं भवति एवं पररूपं नाम पररूपं नाम आकारः पर आकारः भवति एवं कर्कन्धुः कर्कन्धुः नाम कर्क नाम कर्कराजा अस्ति कर्कराजस्य कूपः इति भवति एवं तृतीयम् उदाहरणं कुलटा इति अस्ति कुलटा इत्यत्रापि अकारः अकारः कुलटा नाम भिक्षार्थं व्यभिचारार्थं वा या नट या स्त्री नटति नाटयति वा नटति वा तत्र गृहान् गृहात् गृहं या स्त्री अटति भिक्षार्थं व्यभिचारार्थं वा या स्त्री गृहात् गृहम् अटति सा कुलटा इति उच्यते इदानीम् अकारः अस्ति अकारः अत्र कुल इत्यत्र टिवर्णः अकारः टिवर्ण अच्वर्णः अकारः अटा इत्यत्र अच्वर्णः अकारः एवं द्वयोः स्थाने पररूपं भवति न तु कुलाटा इति सवर्णदीर्घः पूर्वत्रापि कर्कान्दुः इति न भवति एवं मनीषा इति पदं तु सर्वे जानन्ति मनीषा इति पदसिद्धिः इदानीं ज्ञायते मनीषा इति पदं शकण्ड्वादिगणे प्रविष्टः पाणिनिः किं कृतवान् मनीषा इति पदं शकण्ड्वादिगणे स्थापितवान् इदानीं शकण्ड्वादिगणे स्थापितत्वात् अस्य किं भवति मनसीषा इति तत्र भवति मनस् इत्यत्र टिभागः कः अस् अस् टिवर्ण टिभागः ई इति भवति अस् एवम् अस् ईकारयोः किं भवति इत्युक्ते अस् ईकारः एव शिष्यते यतोहि शकन्द्वादिषु पररूपं वाच्यं शकन्द्वादिगणे पठितत्वात् मनीषा शब्दः पररूपं भवति पररूपं नाम ईकारः मन् ईषा मनीषा इति भवति इदानीं प्रधानः प्रश्नः इदानीम् अवगतं वा एतत् मनीषा इत्यादिसिद्धिः कथं मनीषा नाम मनसः ईशा हा समीचीनम् इदानीम् आकृतिगणोऽयम् इति मूले तत्र अस्ति आकृतिगणोऽयं मार्तण्डः इति अस्ति आकृतिगणः नाम किम् आकृतिगणः नाम आङ्ग्लभाषायाम् उच्यते एक्स्पाण्डबल् सेट् तत्र सेट् इति मेथमेटिक्स् मध्ये सेट् थियरि अस्ति सेट् यूनिवर्सल् सेट् इत्यरि तद् इन्फैनैट् सेट् भवति आकृतिगणः नाम यदि तादृशशब्दः लभ्यते तदा शकन्द्वादिगणम् इदानीं प्रश्नः किम् अस्ति शकन्द्वादिगणं कथं निर्दिश्यते तदेव उक्तवान् पाणिनिः आदौ गणपाठं करोति ततः सूत्रपाठं करोति यदि केचन शब्दाः तत्र सन्धिनियमेन सन्धिनियमस्य केचन शब्दानां सन्धिनियमत्वेन अन्तर्भवन्ति इदानीं यदि न अन्तर्भवन्ति शकन्द्वादि नाम एकः गणः स्थापितवान् इदानीं मनीषा इति एकः ऋषिः मनीषा इति एकः ऋषिः उच्चारितवान् आर्षत्वात् तस्य साधुत्वं वक्तव्यं पाणिनिव्याकरणेन साधुत्वं वक्तव्यं साधुत्वं नाम कथं तस्य सिद्धिः इति तदा किं करोति सः मनीषा इति अस्ति इदानीं कथं तस्य साधुत्वं वक्तव्यं नो चेत् कुलटा इति अस्ति कुलाटा इति भवेत् तत्र वस्तुतः अकस्तवर्णे दीर्घः भवेत् इदानीं यदि अकस्तवर्णदीर्घः एव भवेत् कुलटा इति शब्दः असाधुः इति उच्यते तदा ऋषिप्रयोगः असाधुः इति आगतम् ऋषिप्रयोगस्य असाधुत्वम् अस्माभिः नैव वक्तुं शक्यते यतोहि ऋषयः सर्वे यदा वेदस्य उच्चारणम् अपौरुषेयवाक् इति भवति वेदस्य अपौरुषेयवाक् इति उच्यते अतः सर्वेषां पदानां व्याकरणेन साधुत्वं सम्पादनीयं कथमपि कथं सम्पादनीयं पाणिनेः युक्तिः तन्त्रः एषः सः गणपाठं करोति कदाचित् गणपाठे द्विविधाः गणाः भवन्ति कदाचित् गणपाठे सः काश्चन शब्दानां प्रवेशं कारयति भवान् शकन्द्वादिगणे उपविशतु भवान् शकन् इति सः वदति इदानीं मनीषा इति शब्दमागतं मनीषा शब्दं स्वीकृत्य वदति मनीषा शब्दं सः भवान् शकन्द्वादिगणः गणस्थः इति मनीषा शब्दं पृच्छति किमर्थं मां शकन्द्वादिगणे स्थापितवान् इति मनीषा शब्दः पृच्छति भवतः इष्टसिद्धिः साधुत्वं न सम्पादनार्थं मया तत्र भवत्कृते मनस् ईशा इत्यत्र मनीषा इति करणीयं तत्र पररूपं करणीयं तदा एव भवान् साधुशब्दः इति उच्यते अतः गणत्व साधुत्वसम्पादनार्थं मनीषा इति शब्दः शकण्ड्वादिगणे प्रविष्टः एवमेव पाणिनिः लक्ष्यैकचक्षुष्कः भवति सः सर्वान् शब्दराशीन् ये लक्ष्यैकदृष्ट्या सः मुनिः ऋषिः योगदृष्ट्या सः सर्वान् शब्दान् पश्यति अस्मादृश इव सः कार्यं न करोति वयं तु अईतः संस्कृतं पठामः सः तादृशः न अईतः सः संस्कृतं गुरुमुखेन न पठितवान् सह किं कृतवान् लक्षैक चक्षुष्कः इति उच्यते। एते सर्वे मुनयः आचार्याः लक्षैक चक्षुष्काः। लक्ष्यं ते पूर्वं जानन्ति। लक्ष्यं नाम ब्रह्मत्वसिद्धिः। तत्र पदानां तत्र शब्दराशिः यदस्ति तस्य लक्षणम् एवमेव सः पश्यति योगदृष्ट्या। एवं सः चिन्तयति, इदानीं मया सन्धिः उक्तः, अत्र सन्धिः उक्तः, अत्र सवर्णदीर्घः उक्तः, अत्र पररूपम् उक्तम्, अत्र गुणः उक्तः, अत्र वृद्धिः उक्तः। तदा शकन्धुः इति एकं पदमागतम्। अत्र कथं किं कथं समाधानम् इति सः चिन्तयति। अस्तु, तर्हि एतस्य समाधानार्थम् अहमेकं गणं करोमि, शकन्द्वादिगणम् इति तस्य नाम, यतोहि प्रथमशब्दः शकन्धुः एव तस्य प्रथमशब्दस्य नाम। गणस्य नाम सर्वदा प्रथमशब्देन भवति। सः शकन्द्वादिगणः इति स्थापयति। तदनन्तरं सः वदति, वार्तिकारः वदति, शकन्द्वादिषु यत्र कुत्र पररूपं वाच्यम् इति सः वार्तिकारः वदति। अतः एतस्य पररूपम् उच्यते। इदानीम् अवगतं वा? आकृतिगणोऽयम्। इदानीं गणपाठः द्विविध तत्र द्विधा भवति, गणाः द्विधा भवन्ति। एकं किं भवति, आकृतिगणः एकः भवति, एक्स्पाण्डबल् गणः। आकृतिगणः नाम एक्स्पाण्डबल्, दट् मीन्स् इफ् वि सी सिमिलर् शब्दास् वी केन् इन्क्लूड् दम् इन् दट् गण। वि हाव् द रैट्, अस्माकम् अधिकारः अस्ति यदि तादृशशब्दः अस्माभिः दृश्यते तदा अस्माभिः गणे अस्माभिः अपि प्रवेशयितुं शक्यते। तादृशगणः आकृतिगणः इति उच्यते। कदाचित् किं भवति, एक्स्पाण्डबल् फैनैट् सेट् भवति, इन्फैनैट् फैनैट् सेट् इति मेथमेटिक्स् मध्ये उच्यन्ते। आकृतिगणः इन्फैनैट् सेट् अस्ति, तत्र केचन निर्दिश्यन्ते उदाहरणमात्रेण, अन्ये शब्दाः अस्माभिः योजयितुं शक्यते। यदा यदा प्रयोगः भवति तदा तत्र योजयितुं शक्यते। यदि फैनैट् सेट् इत्युक्ते आकृतिगणः नास्ति चेत् किं भवति, तस्मिन् गणे के शब्दाः परिगणिताः भवन्ति, परिगणिताः शब्दाः एव भवन्ति। इत्युक्ते सप्तशब्दाः, अष्टौ शब्दाः, नवशब्दाः, दशशब्दाः, यत्किमपि सङ्ख्या भवतु परिगणिताः, एवं परिगणिताः भवन्ति। अन्यशब्दस्य प्रवेशस्य अवकाशः नास्ति कदाचित्। अत्रापि अत्र किम् इत्युक्ते शकद्वादिगणः आकृतिगणः इत्युक्ते इन्फैनैट् सेट्, आकृत्या स्वरूपेण कार्यदर्शनेन गण्यते परिचीयते इति आकृतिगणः। अत्र न केवलम् अत्र गणपठिताः शब्दाः स्युः, अपि तु तेऽपि शब्दाः सम्मिलिताः भवन्ति यत्र पररूपं कार्यं भवति। इदानीं मृत अण्ड मृतण्ड इति अस्ति, तस्य अपत्यं, मृतण्डस्य अपत्यं मार्तण्डः। तत्र मार्त अण्ड इति शब्दद्वयमस्ति, मार्ताण्डः इति भवेत्, सवर्णदीर्घः भवेत्। परन्तु मार्त अण्ड इति स्थिते अत्र शकन्द्वादिषु पररूपं वाच्यम् इत्यनेन अण्डशब्दस्य मार्त इत्यत्र अकारस्य इत्युक्ते टिभागस्य अत्र अण्डशब्दस्य अकारस्य द्वयोः स्थाने पररूपं भवति, मार्तण्डः इति रूपसिद्धिः भवति। एवमेव अस्माभिः यदि प्रयोगे अस्माभिः एतावत् सदृशाः शब्दाः दृश्यन्ते, अस्माभिः शकन्द्वादिषु पररूपं वाच्यम् इति वार्तिकस्य उक्तत्वात् अस्माभिः स्वीकर्तुं शक्यते इति नियमः। अवगतं वा? एतत् आकृतिगणः। अस्तु, इदानीम् अग्रे गच्छामः। ओमाङ्गोश्च इति सूत्रं विद्यते। इदानीम् ओम् ओमाङ्गोश्च, ओमाङ्गोः च इति भवति। ओमाङ्गोः नाम सप्तमी द्विवचनम्, च इत्यत्र अव्ययं, विपदात्मकं सूत्रं विद्यते। ओमि आङि च आत् परे पररूपम् एकादेशः स्यात्। इदानीं पररूप इदानीं पररूपप्रकरणम् अत्र अस्ति विधि सूत्रमस्ति एतत् ओम च आं च ओमांगो तयोः ओमांगो आद्गुणः इत्यत्र आतिति येङि पररूपम् इत्यतः येङि इति अनुवर्तते एवम् आतित्यत्र पञ्चम पञ्चमी अवर्णात् इति भवति इदानीम् अवर्णात् ओमि आङि च परे सति पूर्वपरयोः स्थाने पररूपम् एकादेशः भवति इदानीं ओम नाम ओम इति अव्ययमस्ति ओम इति अव्ययमस्ति न तु तत्र ओम इति अव्ययमस्ति आङ् इति उपसर्गः अस्ति इदानीं आङ् इत्यत्र नकारः आङ् इत्यत्र नकारः इत्संज्ञा प्राप्नोति हलन्त्यमिति सूत्रेण इत्संज्ञा प्राप्नोति अतः तस्य इत्संज्ञायाः तस्य लोपः इति सूत्रेण आ इत्येव शेषः भवति एतदस्माभिः ज्ञातव्यम् ओम् आङ् इत्यत्र ओम् इति अव्ययम् आङ् इत्यत्र नकारस्य इत्संज्ञा भवति तस्य लोपः इत्यनेन आ इत्येव शिष्यते इदानीं शिवाय ओं नमः इति तत्र उदाहरणं प्रदर्शितं मूले शिवाय ओं नमः इति अस्ति इदानीं शिवाय इत्यत्र ईकारस्य अकारः अस्ति ओम् इत्यत्र ओकारः अस्ति अवर्णात् ओम् इति अस्ति ओमाङ्गोश्च इति सूत्रेण पररूपं भवति एवम् ओम् इत्येव भवति शिवायोम् नमः इति भवति सुलभमस्ति इदानीं द्वितीयमुदाहरणम् एकं स्वीकुर्मः शिवयेहि इति अस्ति शिवेहि इति तत्र स्थापितं शिवयेहि इति स्थिते इदानीं किं शिवयेहि इत्यत्र प्राग्रूपं कथम् आङ् इत्यत्र आ विद्यते इहि इति इकारः विद्यते आ इहि इत्यत्र एहि इति गुण आद्गुणेन गुणसन्धिः भवति इदानीं प्रश्नः किं भवति शिव आ इहि इति यदि भवति चेत् अकार आकारयोः कदाचित् किं भवितुमर्हति सवर्णदीर्घः अपि भवितुमर्हति शिवा इति कृत्वा अनन्तरमपि कर्तुं शक्यते आकार इकारयोः गुणः प्राप्तिः अस्ति इदानीं पश्यन्तु आङ् इत्यस्य उदाहरणं शिव आ इहि इति वर्तते तत्र वकारोत्तर अकारस्य अनन्तरम् आङ् वर्तते एवम् अकार आकार इत्यनयोः स्थाने पररूप आदेशः अपि प्राप्तः अस्ति अकार आकारयोः स्थाने अकस्तवर्णे दीर्घः इति प्राप्तः अस्ति आकार इकारयोः स्थाने गुणः प्राप्तः अस्ति एवं कार्यत्रयं प्राप्तं कार्यत्रयस्य एकदा एव प्राप्तिः अस्ति इदानीं कार्यत्रयस्य एकदा एव प्राप्तिः अस्ति कस्य प्रथमं कस्य कार्यं प्रथमं किं करणीयम् गुणः करणीयो वा सवर्णदीर्घः वा ओमाङ्गोश्च वा तत्र ओमाङ्गोश्च इति सवर्णदीर्घस्य अपवादः अतः ओम् इदानीम् ओमाङ्गोश्च वा गुणः वा इति प्रश्नः ओमाङ्गोश्च वा गुणः वा इति प्रश्नः यदा भवति तदा उत्तरं दीयते प्रथमं गुणं करणीयं यतोहि आ इहि इत्यत्र उपसर्गकार्यम् उपसर्गधातुकार्यम् अन्तरङ्गं भवति अन्तरङ्गं बहिरङ्गम् इति तत्र व्याकरणे कान्सेप्ट् विद्यते अन्तरङ्गं बहिरङ्गं तत्र अन्तरङ्गं नाम एकं स्लैड् त्यक्तमस्ति अन्तरङ्गं नाम उपसर्गधातुकार्यम् अन्तरङ्गम् इति अस्माभिः अस्मिन् क्षणे अस्मिन् सन्दर्भे ಉಪಸರ್ಗ ಧಾತು ಕಾರ್ಯಂ ಅಂತರಂಗಂ ಇತಿ ಸ್ವೀಕರ್ತವ್ಯಂ. ಏವಂ ಪ್ರಥಮಂ ಗುಣಃ ಭವತಿ. ಏವಂ ಶಿವ ಆ ಇಹಿ ಇತ್ಯತ್ರ, ಆ ಇಹಿ ಇತ್ಯತ್ರ ಏಹಿ ಇತಿ ಭವತಿ. ಇದಾನಿಂ ಶಿವ ಏಹಿ ಇತಿ ಸ್ಥಿತಿಹಿ, ತದೇವ ಮೂಲೆ ಅಸ್ತಿ ಶಿವ ಏಹಿ ಇತಿ ಸ್ಥಿತೆ. ಶಿವ ಏಹಿ ಇತಿ ಸ್ಥಿತೆ ಅಂತಾದಿವಚ್ಚ. ಇದಾನಿಂ ಅಸ್ಮಾಭಿಹಿ, ಇದಾನಿಂ ಅತ್ರ ಓಮಾಂಗೋಶ್ಚ ಇತಿ ಸೂತ್ರಸ್ಯ ಪ್ರವೃತ್ತಿಹಿ ಕಥಂ, ಏಕಾರಸ್ಯ ಆಂತ್ವಂ ಕಥಂ ಇತಿ ಪ್ರಶ್ನಃ. ಪ್ರಧಾನಃ ಪ್ರಶ್ನಃ ಕಿಂ ಆಯಾತಿ, ಅಕಾರ ಏಕಾರಃ ಅಸ್ತಿ, ಏಕಾರಸ್ಯ ಆಂತ್ವಂ ಕಥಂ ಆಯಾತಂ. ಶಿವ ಯೇ ಹಿ ಇತ್ಯತ್ರ ಯದಿ ಆಂತ್ವಂ ಆಗಚ್ಚತಿ ತರ್ಹಿ ಏಕಾರಃ ಭವತಿ ಶಿವೇ ಹಿ ಇತಿ ರೂಪಸಿದ್ಧಿ ಭವತಿ. ಆಂತ್ವಂ ಕಥಂ ಇತ್ಯೇವ ಪ್ರಶ್ನಃ. ತದಾ ಉಚ್ಯತೆ ಅಂತಾದಿವಚ್ಚ ಇತಿ ಸೂತ್ರಂ ವಿದ್ಯತೆ. ಇದಾನೀಂ ಯದಾ ಏತತ್ ಅತಿದೇಶ ಸೂತ್ರಮಸ್ತಿ, ಏತಾವತ್ ಪರ್ಯಂತಂ ಅತಿದೇಶ ಸೂತ್ರಂ ಅಸ್ಮಾಭಿಃ ನ ದೃಷ್ಟಂ. ಸಂನ್ಯಾಸೂತ್ರಂ ಸಂನ್ಯಾಸ ಪರಿಭಾಷಾ ಚ ವಿಧಿರ್ ನಿಯಮ ಏವ ಚ ಅತಿದೇಶೋ ಅಧಿಕಾರಶ್ಚ ಷಡ್ವಿಧಂ ಸೂತ್ರಮುಚ್ಯತೆ. ಅತಿದೇಶ ಸೂತ್ರಮಸ್ತಿ. ಅತಿದೇಶ ಸೂತ್ರಂ ನಾಮ ಅನ್ಯಸ್ಮಿನ್ ಯತ್ ಧರ್ಮ ಅಸ್ತಿ ಅನ್ಯಸ್ಮಿನ್ ತತ್ ಆರೋಪಃ ಅನ್ಯ ಅತಸ್ಮಿನ್ ತದ್ಬುದ್ಧಿ ಇತಿ ಉಚ್ಯತೆ. ತತ್ರ ವೇದಾಂತೆ ಉಚ್ಯತೆ ಅತಸ್ಮಿನ್ ತದ್ಬುದ್ಧಿ ಅಭ್ಯಾಸ ಇತಿ ಉಚ್ಯತೆ. ಅತಸ್ಮಿನ್ ತದ್ಬುದ್ಧಿ ಇದಾನಿಂ ಇದಾನಿಂ ತತ್ರ ಕ್ರಿಕೆಟ್ ಕ್ರೀಡಾಯಾಂ ವಯಂ ಪಶ್ಯಾಮಶ್ಚೇತ್ ಚೇತೇಶ್ವರ್ ಪೂಜಾರ ಇತಿ ನೂತನಃ ಏಕಃ ಆಗಚ್ಚತಿ. ಪೂಜಾರ ಕಥಮಸ್ತಿ ಇತಿ ಪ್ರಶ್ನೆ ಕೃತೆ ರಾಹುಲ್ ದ್ರವಿಡ್ ವತ್ ಅಸ್ತಿ ಇತಿ ಅಸ್ಮಾಭಿಃ ಉತ್ತರಂ ದೀಯತೆ. ಪೂಜಾರ ರಾಹುಲ್ ದ್ರವಿಡ್ ವತ್ ಇತಿ ಅಸ್ತಿ. ಏವಂ ರಾಹುಲ್ ದ್ರವಿಡ್ ಮಧ್ಯೆ ಬಹಳ ಗುಣಾ ಸಂತಿ. ತತ್ರ ಕ್ರಿಕೆಟ್ ಕ್ರೀಡಾ ಸಮಯ ಕ್ರೀಡಾಪಟುತ್ವ ಗುಣಾ ಯದ್ಯದಸ್ತಿ ತತ್ಸರ್ವಂ ಪೂಜಾರ ಮಧ್ಯೆ ಆರೋಪ್ಯತೆ ಅಸ್ಮಾಭಿಃ. ಏತದೇವ ಅತಿದೇಶ ಸೂತ್ರಂ. ಅಂತಾದಿವಚ್ಚ ಇತಿ ಅಪಿ ಅತಿದೇಶ ಸೂತ್ರಂ ವಿದ್ಯತೆ. ಇದಾನೀಂ ಯೋಯಮೇಕಾದೇಶಃ ಸಹ ಪೂರ್ವಸ್ಯ ಅಂತವತ್ ಪರಸ್ಯ ಆದಿವತ್ ಓ ತದ್ದೋಷ ಅಸ್ತಿ ಪರಸ್ಯ ಆದಿವತ್ ಸ್ಯಾತ್. ಮೂಲಂ ಪಶ್ಯಂತು ಯೋಯಮೇಕಾದೇಶ ಸಹ ಪೂರ್ವಸ್ಯ ಅಂತವತ್ ಪರಸ್ಯ ಆದಿವತ್ ಸ್ಯಾತ್ ಶಿವೇಹಿ ಇತಿ ಪುನಃ ತದೇವ ಉದಾಹರಣಂ ದತ್ತಮತ್ರ. ಇದಾನೀಂ ಅಂತಶ್ಚ ಆದಿಶ್ಚ ಅಂತಾದಿ, ಅಂತಾದಿಭ್ಯಾಂ ತುಲ್ಯಂ ಅಂತಾದಿವತ್. ವತ್ ನಾಮ ತುಲ್ಯಂ. ತತ್ರ ಉಪಮಾಲಂಕಾರೆ ಅಲಂಕಾರಶಾಸ್ತ್ರೇ ಅಪಿ ಆಗಚ್ಚತಿ ವತ್ ಇವ ಇತ್ಯಾದಿ ಶಬ್ದಾ. ಇದಾನೀಂ ಅಯಂ ಏಕಾದೇಶಃ ಯದಾ ಯದಾ ಭವತಿ ಪೂರ್ವಪರಯೋಃ ಸ್ಥಾನೆ ಅಂತಾದಿವತ್ ಭಾವಃ ಭವತಿ. ಅಂತಾದಿವತ್ ಭಾವಃ ನಾಮ ಕಿಂ? ಅಂತಾದಿವತ್ ಭಾವಃ ನಾಮ ಇದಾನೀಂ ಉಪ ಇಂದ್ರಃ ಇತಿ ಸ್ವೀಕುರ್ವಂತು. ಅತ್ರ ಪೂರ್ವಸ್ಯ ಅಕಾರಸ್ಯ ಪರಸ್ಯ ಇಕಾರಸ್ಯ ಸ್ಥಾನೆ ಗುಣಃ ಏಕಾದೇಶ ಭವತಿ. ಇದಾನೀಂ ಗುಣಃ ಏಕಾದೇಶಃ ನಾಮ ಗುಣಃ ನಾಮ ಏ ವರ್ಣಃ ಅಸ್ತಿ. ಇದಾನೀಂ ಪ್ರಕೃತೇನ ಅಂತಾದಿವತ್ ಇತಿ ಸೂತ್ರೇಣ ಪೂರ್ವವರ್ತಿನಃ ವರ್ಣಸಮುದಾಯಸ್ಯ ಉಪ ಇತ್ಯಸ್ಯ ಅಂತ ಅಕಾರವತ್ ಭವತಿ. ಕಸ್ಯ ಏಕಾರಸ್ಯ ಅಂತ ಅಕಾರವತ್ ಭಾವಃ. ಏವಂ ಇಂದ್ರಃ ಇತ್ಯಸ್ಯ ಆದಿ ಇಕಾರವತ್ ಭಾವಃ ಭವತಿ. ಏತದೇವ ಅಂತಾದಿವತ್ ಭಾವಃ ಇತಿ ಉಚ್ಯತೆ. ಪರಿಣಾಮತಃ ಏಕಾರಃ ಇತಿ ವರ್ಣಃ ಅಕಾರ ಇಕಾರಯೋಃ ಸ್ಥಾನೆ ಆದೇಶಃ ಭವತಿ. ಏವಮೇವ ಅತ್ರ ಶಿವ ಏಹಿ ಇತ್ಯತ್ರ ಯೇ ಇತಿ ವರ್ಣಃ ಅಸ್ಮಾಭಿಃ ಏಕಾದೇಶಃ ಕೃತಃ. ಅಯಂ ಏಕಾದೇಶಃ ಪೂರ್ವವರ್ತಿನಃ ವರ್ಣಸಮುದಾಯಸ್ಯ ಅಂತಾದಿವತ್ ಸ್ಯಾತ್ ಇತಿ ಅತ್ರ ಭವತ್. ಅತ್ರ ಉತ್ತರಂ ಅಂತಾದಿವತ್ ನಾಮ ಅತ್ರ ಆ ಪೂರ್ವವರ್ತಿನಃ ವರ್ಣಸಮುದಾಯಸ್ಯ ಆ ಆಂಗ್ ಇತ್ಯತ್ರ ಆ ಇತಿ ವರ್ತತೆ. ಏತಸ್ಯ ಏವಂ ಪೂರ್ವವರ್ತಿನಃ ವರ್ಣಸಮುದಾಯಸ್ಯ ಆಂಗ್ ಏಕಾರಃ ಆಂಗ್ವತ್ ಭವತಿ. ಆಂಗ್ವತ್ ಭವತಿ ಇತ್ಯುಕ್ತೆ ಆಂಗ್ ಇತ್ಯಸ್ಯ ಪರೆ ಸತಿ ಯತ್ ಕಾರ್ಯಂ ಸಂಪನ್ನಂ ಭವತಿ ಏಕಾರೇ ವರ್ಣೇ ಪರೆ ಅಪಿ ತತ್ ಕಾರ್ಯಂ ಭವತಿ ಇತ್ಯರ್ಥಃ. ಇದಾನೀಂ ಓಮಾಂಗೋಶ್ಚ ಇತಿ ಸೂತ್ರೇಣ ఆంగి ఇది పదే పదే ఏవ పూర్వరూపం ఇది సారీ పరరూపం ఇది ఏకాదేశ విధానం కృతం. అత ఓమాంగోశ్చ ఇది సూత్రస్థ సూత్రే శివ ఏహి ఇత్యత్ర ఏకారస్య ఆంగ్త్వం అంతాదివద్ భావేన ఏకారస్య ఆంగ్త్వం ఆయాతం ఏవం శివ ఏ ఇత్యత్ర ఆంగ్త్వమస్తి అత పరరూపం ఇత్యుక్తే శివ శివేహి ఇతి రూపసిద్ధి భవతి. అవగతం వా? అస్తు, ఏదో అంతాదివద్భావం పునః అగ్రిమకక్షాయాం కించిత్ వదామి, యతో హి కించిత్ వేగేన ఉక్తవాన్, అగ్రిమకక్షాయాం తద్ పునః వదామి. ఇదానీం ఓమాంగోశ్చ ఇది సూత్రం వృద్ధిరేచి అకస్సవర్ణే దీర్ఘ ఇత్యనయోః సూత్రయోః అపవాదః అస్తి, తదస్మాభిః స్మర్తవ్యం. పునః వక్తవ్యం కృపయా, అగ్రిమకక్షాయాం పునః వదామి అంతాదివద్భావః. అస్తు, అగ్రిమకక్షా త్రయోదశ దినాంకే అస్మాకం గురూణాం కిమపి కార్యమస్తి, అతః త్రయోదశ దినాంకే కక్షా న భవిష్యతి, పంచదశ దినాంకే అగ్రిమకక్షా భవిష్యతి. అహం మెయిల్ ప్రేషయామి, పరంతు ఇదానీం ఉక్తవాన్ యతోహి నత్వా సరస్వతీం దేవీం శుద్ధాం పుణ్యాం కరోమ్యహం పాణినీయ ప్రవేశాయ లఘు సిద్ధాంత కౌముదీం. రామ్ రామ్ రామ్.